एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिः रामचन्द्र पौडेलः देशस्य जनतायाः संविधानस्य च रक्षायै निर्वाचनम् एक एव विकल्पोऽस्तीति उक्तवान् वर्तते। राष्ट्रपतिना पौडेलेन ह्य शीतल निवासवर्तिनी राष्ट्रपति कार्यालये आहुते अन्तरिम सर्वकारेण सहिते सर्वदलीयोपवेशे राष्ट्रपति पौडेल फाल्गुन मासस्य एकविंशाय दिवसाय निर्धारिते प्रतिनिधिसभाया निर्वाचने सहभागितायै दलानि अनुरुणत। तदवसरे राष्ट्रपति पौडेल शान्ति सुरक्षाया आवश्यकं प्रबन्धं विधाय भयरहिते वातावरणे निष्पक्षं निर्वाचनं सम्पादयितुं नागरिकान् निर्वाचनस्य विषये विश्वस्तान् विधातुं परामृशत् इति राष्ट्रपतेः संचार परामर्शदाता किरण पोखरेलः असूचयत्। राष्ट्रपतिः पौडेलः भ्रमम् अपसार्य जेन्जी यूनां समूहस्य याचनायाः पूर्तिरपि विधास्यते इति प्रतिज्ञाय जनतायाः समक्षं गन्तव्यमिति चर्चयन् दलानां सुरक्षायाः सम्बोधनं सर्वकारेण तत्कालमेव विधेयमिति प्रावोचत्। उपवेशे सहभागिभिः राजनीतिकदलानां नेतृभिः लोकतन्त्रे विश्वासं विदधद्भिः राजनीतिकदलैः निर्वाचनार्थं सदैव तत्परै भूयते इति उक्त्वा साम्प्रतिक्या सुरक्षाव्यवस्थया निष्पक्षे स्वतन्त्रे च वातावरणे निर्वाचनस्य सम्पादनस्य विषये संशयः उत्पन्नोऽस्तीति उक्तमासीत्। उपवेशे प्रधानमन्त्री सुशीला कार्की दलानां सहभागितां विना निर्वाचनं न सम्भविष्यतीति विषये सर्वकारः स्पष्टोऽस्तीति चर्चयन्ति स्वतन्त्रतया निष्पक्षतया च भयरहिते वातावरणे निर्वाचनं विधातुं सर्वकारेण शान्ति सुरक्षायाः प्रबन्धो विधास्यते इति विषये समाश्वासयत्। सर्वकारेण जेन्जी यूनां समूहस्य आन्दोलनस्य क्रमे प्राप्त क्षतीनां भौतिक संरचनानां पुनर्निर्माणाय आसन्न निर्वाचनस्य सम्पादनाय विपद व्यवस्थापनाय च वर्तमानार्थिक वर्षस्य स्वीकृतस्य आयव्ययकस्य अभ्यन्तरस्य आयोजनात वित्तान्तरणं विधाय वित्तस्य व्यवस्थापनं विधातुं निर्णीतं वर्तते। मन्त्री परिषद उपवेशस्य निर्णयान् सार्वजनिकर्तुं पूर्वेद्युः सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च जगदीश खरेलः वर्तमान विशेष परिस्थिते आवश्यकस्य वित्तस्य व्यवस्थापनाय स्वीकृताय व्ययक विवरणस्य अभ्यन्तरस्य आयोजनाभ्यः वित्तान्तरणं कर्तुं निर्णीतमस्तीति असूचयत्। मन्त्री परिषद उपवेशेन नेपाल विद्युत प्राधिकरणस्य स्रोतसां व्यवस्थापनाय विंशते अब्जानां रूप्यकाणां ऋणपत्रस्य आह्वानाय स्वीकृतिं प्रदातुं निर्णीतं वर्तते। एवमेव मन्त्री परिषद उपवेशेन कोलकाता वर्तिनः नेपाली महावाणिज्य दूतावासस्य स्वामित्वे विद्यमानायाः चतुष्टयं 10.9 वर्गमीटर मितायाः भूमेः भारतीय धूम्रयान सेवा विकास निगम प्रतिष्ठानस्य स्वामित्वे विद्यमानया 50.34 वर्गमीटर भूम्या सह परिवर्तनं विधातुं प्रथमश्रेण्याः पञ्चदशानां सहसचिवानां स्थानान्तरणं विधातुं नगरीय विकास सम्बद्ध विधेये संशोधनेन एकीकरणेन च सह सम्बद्ध विधेयकस्य अथ च नगरीय विकास कोष सम्बद्ध विधेये संशोधनेन एकीकरणेन च सह सम्बद्धस्य विधेयकस्य च निर्माणाय सैद्धान्तिकीं स्वीकृतिं प्रदातुं च निर्णीतं वर्तते इति सर्वकारस्य प्रवक्ता संचार मन्त्री च खरेलः असूचयत्। नेपाली सेनया यथाशीघ्रं शान्ति सुरक्षायाः स्थापनस्य उद्देश्येन आवश्यकतायाः अनुसारेण कार्यं विधीयमानमस्तीति ज्ञापितं वर्तते। नेपाली सेनया ह्यो विज्ञप्तिं प्रकाश्य गत भाद्रमासस्य 23-24 च दिवसयोः विषम परिस्थितेः सामान्यीकरणस्य सन्दर्भे नेपाली सेनया ऊढां भूमिकां प्रति विद्वद्वर्गतः समाजसेविभ्यः संचारकर्मिभ्यः अन्येभ्यो नागरिकेभ्यश्च प्राप्तानि विभिन्नानि परामर्शनानि समालोचनात्मकाभिव्यक्तिं प्रति च आभारः व्यक्तोऽस्ति। आन्तर सुरक्षायां सम्भावितस्य प्रभावस्य वस्तुपरकतया मूल्यांकनं विधाय आवश्यकतायाः अनुसारेण प्रयासः विहितोऽस्तीति विज्ञप्तौ उल्लिखितं वर्तते। विज्ञप्तौ संवेदनशील वर्तमानावस्थायां विभिन्न संचार माध्यमैः सामाजिक सञ्जालैश्च संस्थां नेतृत्वं च संयुज्य विभिन्न टिप्पणीनां धारणानां च विहितं सम्प्रेषणं प्रति नेपाली सेनायाः ध्यानाकर्षणं सम्भूतमस्तीति नेपाली सेनया ज्ञापितं वर्तते। नेपाली सेनया स्वस्य धारणा गतिविधयस्य नियमितरूपेण विज्ञप्तेर्माध्यमेन आधिकारिकस्य सामाजिक सञ्जालस्य च माध्यमेन सार्वजनिक क्रियमाणाः सन्तीति च विज्ञप्तौ ज्ञापितं वर्तते। नेकपा एमाले दलस्य सचिवालयोपवेशेन दलानां निषेधं न कर्तुं सर्वकारः अनुरुद्धोऽस्ति। भक्तपुरस्य गुण्डुवर्तिनी अध्यक्षस्य केपी शर्मा ओलिनः निवासे ह्य उपविष्टस्य सचिवालयोपवेशस्य अनन्तरं संचारकर्मिभिः भाषमाणः उपमहासचिवः प्रदीप गेवाली निष्पक्ष निर्वाचनस्य स्थितौ नेकपा एमाले दलं निर्वाचनात् न पलायिष्यते इत्यस्मिन् विषये विमृष्टमासीदिति असूचयत्। जेएनजीयूनां समूहस्य आन्दोलनस्य गभीरतया अनुसन्धानं कर्तव्यम् इति विषये सर्वकारम् अनुरोद्धुम् एमाले दलेन निर्णीतं वर्तते। उपवेशः अद्य पुनः वसति। हुम्ला जनपदस्य चंखेली ग्रामपालिकायाः समीपे बोलेरो जीपयानस्य दुर्घटनायां त्रयो जनाः मृताः सन्ति। मेलछाम ग्रामात् पिप्लाङ स्थानं प्रति प्रस्थीयमानं जीपयानं ग्रामपालिका केन्द्रस्य समीपे दुर्घटितम् आसीत्। दुर्घटनायां चंखेली ग्रामपालिकायाः षष्ठ ओडा क्षेत्रस्य 27-वर्षीयः मनवीर बुढा 30-वर्षीया वसन्ती बुढा तस्याः पुत्र 2-वर्षीयः देवांश बुढा च वर्तन्ते इति प्रहरिणा ज्ञापितमस्ति। जीपयाने आरूढेषु 12 जनेषु गभीरतया आहताः 7 नेपाली सेनायाः हेलीकॉप्टर यानेन उद्धृताः सन्तीति जनपद प्रहरी कार्यालयस्य प्रहरी उपरीक्षकः शंकर पोखरेलः असूचयत्। बागमती मधेश कोशी प्रदेशानां जनपदानां योजकः वीपी राजमार्गः ह्यस्तना दिवसात् एकपक्षतः सञ्चालितोऽस्ति। अस्यैव आश्विनमासस्य 17, 18, 19 च दिवसेषु दुरापन्नया अविरल वृष्ट्या सहैव दुरापन्नयोः जलविप्लव भूस्खलनयोः कारणेन अवरुद्धस्य राजमार्गस्य सम्भारं विधाय एकपक्षतः मार्गः सञ्चालितोऽस्ति। राजमार्गस्य काभ्री जनपदस्य सिन्धुली जनपदस्य च आसन्न 3 स्थानेषु क्षतिग्रस्तः आसन्न 4 किलोमीटर परिमितः मार्गः अस्थायी रूपेण सम्भारं विधाय सञ्चालितोऽस्तीति काष्ठमण्डपवर्तिनः संघीय मार्ग सुपरिवेक्षणानुगमन कार्यालयस्य प्रमुखः शुभराज नेउपाने असूचयत्। राजमार्गोऽयं श्वः रविवासरात् उभयपक्षतः सञ्चालयिष्यते इति च प्रमुखः नेउपाने असूचयत्। अन्तर्राष्ट्रिय क्रिकेट क्रीडा परिषदः T20 विश्वस्तरीय स्पर्धायां एशिया क्षेत्रस्य पूर्वैशिया क्षेत्रस्य च प्रचयनात्मक क्रिकेट क्रीडायां जापान देशं पराजित्य नेपालः समूह विजेतुः रूपेण 6 समूहेषु प्रविष्टोऽस्ति। गतरात्रौ क्रीडितायां क्रिकेट क्रीडायां नेपालेन जापान देशोपरि 6 क्रीडकानाम् अन्तरेण विजयः अधिगतो वर्तते। प्रतियोगितायां क्रमेण क्रीडाद्वये एव विजय प्राप्तेः पश्चात् नेपालेन 4 अंकाः अर्जिताः वर्तन्ते।